इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। आदौ मुख्य वार्ताः। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अल्जीरिया देशीयेन राष्ट्रपतिना अब्देल मजीद तबून इत्यमुना साकं द्विपक्षीयोपवेशनानि विधास्यति। केन्द्रीय संचार मंत्री ज्योतिरादित्य सिंधिया अकथयत यत 5G इत्येतस्य पंचम संततेः पदक्षेपेण 44,000 वर्षं यावत् भारतीयार्थव्यवस्थायां 450 मिलियन डॉलर मितस्य निवेशस्य आशा दरीदृश्यते। संवर्धमानस्य प्रदूषणस्य आलोके दिल्ली प्रशासनेन राष्ट्रीय राजधान्यां दिल्ल्यां सर्वप्रकारकेषु स्फोटकेषु पूर्ण प्रतिबन्धः प्रख्यापितः। अमेरिकादेशः इज़राइल देशाय उन्नत प्रक्षेपास्त्र प्रक्षाप्रणालीं प्रेषयिष्यति। अपि च भारतम् आगामि वर्षे ISSF इत्याख्यस्य कनिष्ठ विश्व चषक लक्ष्यभेदकस्य आतिथ्यं विधास्यति। इदानीं वार्ताः विस्तरेण। अल्जीरिया देशस्य यात्रायाः द्वितीये दिवसे राष्ट्रपतिः द्रौपदी मुर्मुः अल्जीरिया देशीयेन राष्ट्रपतिना अब्देल मजीद तबून इत्यमुना साकं प्रमुखैः नेतृभिस्साकं च द्विपक्षीयोपवेशनानि विधास्यति। अपि च अल्जीरिया भारत आर्थिक मञ्चं सम्बोधयिष्यति। अवधेयं वर्तते यत् राष्ट्रपतिः अल्जीरिया मॉरिटेनिया मलावी देशानां यात्रायाः प्रथमे चरणे अल्जीरिया देशस्य राजधान्याम् अस्ति। राष्ट्रपतेः इयं यात्रा अफ्रीकी देशैः सह भारतस्य सम्बन्धान् प्रबलीकर्तुं केन्द्रिता वर्तते। अस्माकं वार्ताहरेण सूचितं यत् राष्ट्रपतिः अद्य अल्जीरिया यात्रायाः द्वितीये दिवसे अल्जीरिया स्वतन्त्रता संग्रामस्य वीरयोधृणां स्मरणे निर्मितस्य वीरगति स्मारकस्य मकाम इचाहिद इत्याख्यस्य भ्रमणं कृत्वा हुतिंगतेभ्यः वीरेभ्यः पुष्पांजलिम् अपि समर्पितवती। केन्द्रीय संचार मंत्री ज्योतिरादित्य सिंधिया अद्य प्रावोचत् यत् भारतेन केवलं 22 मासेषु सर्वेषु राज्येषु केन्द्रशासित प्रदेशेषु च 80% यावत् जनसंख्यां स्पृष्ट्वा 5G इति पंचम संततेः दूरसंचार सेवाः समारब्धाः। नवदिल्ल्यां 5G इत्येतस्य वैश्विक मानक संगोष्ठ्याः औद्घाटनिके सत्रे श्री सिंधियाः अकथयत् यत् अमुना 5G इत्येतस्य पदक्षेपेण 44,000 वर्षं यावत् भारतीयार्थव्यवस्थायां 450 मिलियन अमेरिकीय डॉलर मितस्य निवेशस्य आशा दरीदृश्यते। वैश्विक संगोष्ठ्यां विषये प्रवदन मंत्री अवोचत् यत् एषा संगोष्ठी वैश्विक संवादाय प्रकाशस्तम्भत्वेनापि कार्यं समाचरति। मंत्रिणा अग्रे निगदितं यत् समग्र विश्वं प्रौद्योगिक नवाचारयोः आदर्शात्मक परिवर्तनम् अवलोकयति। एतदर्थं मानकानां विनियमानां अवधारणा अधिकं महत्वपूर्णम् अस्ति। प्रथमवारमपि विश्व दूरसंचार मानकीकरण सभा भारते आयोज्यते। एतस्मिन् कार्यक्रमे 100+ देशाः सम्मिलिताः भवन्ति। अत्रावसरे अन्ताराष्ट्रिय दूरसंचार संघस्य महासचिवः डोरिन बोग्डन मार्टिन इत्येषः ख्यापितवान् यत् भारतदेशः तेभ्यः अनेकेभ्यः देशेभ्यः आदर्शस्वरूपो विद्यते ये प्राविधिक परिवर्तनम् अन्विष्यन्ति। असौ भारते प्रारब्ध कृत्रिम बुद्धिमत्तायाः महत्वपूर्ण निवेशम् अभिलक्ष्य प्रसन्नताम् अभिव्यक्तवान्। संवर्धमानस्य प्रदूषणस्य आलोके दिल्ली प्रशासनेन राष्ट्रिय राजधान्यां दिल्ल्यां सर्वप्रकारकाणां स्फोटकानां निर्माण संभरणे विक्रये च पूर्ण प्रतिबन्धः प्रख्यापितः। अयं प्रतिबन्धः अद्यतः अग्रिममासस्य जनवरी मासस्य प्रथमदिनांकपर्यन्तम् आरोपितो भविष्यति। अस्मिन् सन्दर्भे दिल्ली प्रदूषण नियन्त्रणायोगेन आदेशः सम्प्रसारितः यस्मिन् सर्वप्रकारकाणां स्फोटकानां प्रज्वलने अन्तर्जालीय माध्यमेन विभिन्नेषु पटलेषु आपूर्तिकार्येऽपि प्रतिबन्धः सम्मिलितो विद्यते। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी श्वः नवदिल्ल्याम् अन्ताराष्ट्रियदूरसञ्चारसंघस्य विश्वदूरसञ्चारमानकीकरणसभायाः उद्घाटनं करिष्यति। भारतं प्रथमवारम् अस्याः सभायाः आयोजनं करोतीति। श्रीमोदी अत्रावसरे इण्डिया मोबाइल कांग्रेस इत्येतस्यापि उद्घाटनं करिष्यति। अस्माकं वार्ताहरः सूचितवान् यत् दशदिवसात्मके एतस्मिन् कार्यक्रमे प्रवर्तमानभविष्यकालयोः उपयुज्यमानप्रौद्योगिक्याः विषयेऽपि विचारविमर्शो भविष्यति। विदेशमन्त्री डॉ एस जयशंकरः अद्य सूचितवान् यत् अद्य नवदिल्ल्यां ई माइग्रेट वी इत्यस्य अन्तर्जालिकपटलस्य द्वितीयसंस्करणस्य चलदूरभाषीय अनुप्रयोगस्यापि उद्घाटनं कृतवान्। एतस्मिन् अन्तर्जालिके पटले 81,000+ यावत् पञ्जीकृताः वैदेशिकनियोक्तारः निहिताः सन्ति। इदम् अन्तर्जालपटलं प्रवासीभारतीयेभ्यः सुरक्षितमस्ति, वैधनियुक्तमार्गं च संवर्धयति इति। स्वकीये सम्बोधने डॉ जयशंकरः कथितवान् यत् ई माइग्रेट वी इत्येतस्य द्वितीयसंस्करणस्य शुभारम्भः भारतीयेभ्यः सुरक्षितपारदर्शीसमावेशीगतिशीलतानां सृजनात्मक उपक्रमाय प्रशासनस्य प्रयासानाम् उद्धरणम् अस्ति। अपि च इदं नवीनसंस्करणं विदेशेषु भारतीयकर्मकराणाम् अधिकारसम्मानयोः रक्षां प्रति प्रशासनस्य वचनबद्धताम् अपि प्रदर्शयति। अस्य पटलस्य दक्षतां समेधितुं प्रौद्योगिक्याः प्रयोगः अपि जातः। प्रवासिभ्यश्च सामाजिकसुरक्षाम् अपि प्रदास्यते। उपभोक्तृविषयकमन्त्री प्रह्लादजोशी अद्य प्रतिपादितवान् यत् व्यतीतेषु दशसु वर्षेषु भारतीयमानकविभागद्वारा प्रायशः 32,700 उत्पादेभ्यः भूयोऽपि 15% गुणवत्तानियन्त्रणादेशः अभिसूचिताः। नवदिल्ल्यां विश्वमानकदिवसकार्यक्रमावसरे असौ न्यगादीत् यत् राष्ट्रियमानकानां कार्यान्वयनाय प्रशासनेन सर्वोच्चप्राथमिकता प्रदीयते। वार्ताहरैः समं वार्तां कुर्वन् असौ उपभोक्तृभिः आग्रहं कृतवान् यत् तैः BIS इत्यनेन चिह्नेन समंकितानां उत्पादानाम् एव उपयोगः करणीयः इति।
हाईएस्ट स्टैंडर्ड्स हमने किया है, 174 तक QCO है अभी हमारा, और भारत में जो कंज्यूमर्स है वो कंज्यूमर्स में BIS मार्क के प्रोडक्ट को ही परचेज करना, ऐसे एक बहुत बड़ा अवेयरनेस क्रिएट करने का हम ऐलान किया है, वही हमारा उद्देश्य है।
केन्द्र प्रशासनेन केन्द्रशासित प्रदेशे जम्मू कश्मीरे राष्ट्रपति शासनं प्रत्यवगृहीतम्। अनेन कार्येण जम्मू कश्मीरे नवीन सर्वकारस्य निर्माणस्य मार्गः प्रशस्तो जातः। अस्मिन् सन्दर्भे केन्द्रीय सर्वकारेण प्रख्यापिता एका आधिकारिकी अधिसूचना। सद्यः सम्पन्ने विधानसभा निर्वाचने नेशनल कॉन्फ्रेंस कांग्रेस दलयोः संयुत्या बहुमतं समर्जितम्। इतः पूर्वं शुक्रवासरे नेशनल कॉन्फ्रेंस दलस्य उपाध्यक्षः ओमार अब्दुल्लाह श्रीनगरस्थे राजभवने उपराज्यपालं मनोज सिन्हा मिलित्वा जम्मू कश्मीरे सर्वकारस्य निर्माणाय स्वसंकल्पं ज्ञापितवान्। संयुक्त राज्य अमेरिका देशेन घोषितं यत् सः थाड इति स्वदेशीय प्रक्षेपास्त्र संरक्षा प्रणालीम् अथ च शतसंख्यकान् सैन्यभटान् च इज़राइल देशाय प्रदास्यति। गतवर्षे इज़राइल देशे संजातस्य हमास आतंकीय संघटनस्य आक्रमणानन्तरं प्रथम अवसरोऽयं यत् संयुक्त राज्य अमेरिकायाः सैन्यभटाः इज़राइल देशे नियुक्ताः भवन्ति। पेंटागॉन इति अभिकरणेन समुदीरितं यत् राष्ट्रपतिना जो बाइडेन इत्यमुना रक्षासचिवाय लॉयड ऑस्टिन इत्यस्मै आदिष्टः यत् शीर्षपटलीय उच्च उन्मिति क्षेत्र रक्षा प्रणाली उतवा थाड प्रणाली अस्य विशेषज्ञभटाश्च इज़राइल देशे स्थापिताः भवेयुः। भारतम् आगामिवर्षे ISSF इत्याख्यस्य कनिष्ठ विश्वचषक लक्ष्यभेदकस्य आतिथ्यं करिष्यति इति वार्ताः।